एकत्वं व्यवहारतो न तु पुनः कायात्मनोर्निश्चयान्नुः स्तोत्रं व्यवहारतोऽस्ति वपुषः स्तुत्या न तत्तत्त्वतः स्तोत्रं निश्चयतश्चितो भवति चेत् स्तोत्यैव सैवं भवेन्नातस्तीर्थकरस्तवोत्तरबला देकत्वमात्माङ्गयोः।